नमस्सर्वेभ्यः अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे एकत्रिंशः पाठः सेप्टेम्बर् मासस्य चतुर्विंशः दिनाङ्कः एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्ये च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते पञ्चमीविभक्तिप्रकरणं समाप्तं तत्र किञ्चिदिव तत् पूर्णं पुनरावर्त्य अग्रेसरामः पञ्चमीविभक्तिः पञ्चमीविभक्तेः कारकं भवति अपादानकारकम् अपादाने पञ्चमी इति सूत्रेण अपादानकारकस्य पञ्चमीविभक्तिर्विधीयते किं नाम अपादानम् इत्यत्र बहूनि सूत्राणि सन्ति प्रोबब्लि अपादान इस् द कारक विच् इस् द मोस्ट् नम्बर् आफ् डिफैनिङ्ग् सूत्रस् विच् डिफैन् ऐ मीन् जस्ट् अपादान ध्रुवमपाये अपादानम् इति प्रमुखं सूत्रम् अपायः नाम विश्लेषः सेपरेशन् यत्र विश्लेषः विद्यते तत्र ध्रुवं नाम अवधिभूतं चलन अनाश्रयं सो वेन् देर् इस् सेपरेशन् बिट्वीन् टु थिङ्ग्स् सो वन् इस् स्टेशनरी अण्ड् अदर् मूव्स् अवे फ्रम् इट् सो द वन् विच् इस् स्टेशनरी फ्रम् विच् अपादान आर् सेपरेशन् इस् बीङ्ग् टोल्ड् विल् गेट् अपादान संज्ञा वृक्षात् पर्णं पतति वृक्षस्य पर्णस्य च संयोगः विद्यते तयोः विश्लेषे जाते वृक्षावधिकः विश्लेषः अतः वृक्षस्य अपादानत्वं वृक्षात् इति पञ्चमी अत्रैव ध्रुवं ध्रुवपदार्थविषये अपि दृष्टं ध्रुवम् इत्युक्ते वस्तुतः चलन अनाश्रयः इत्येव अर्थः ध्रुवः किन्तु यद्यपि अवधिभूते चलनं स्यात् तथापि तद् अपादानमेव यथा धावतः अश्वात् पतति तस्य अश्वः धावति तस्मात् योधः पतति अत्र विश्लेषः अश्वयोधयोः तत्र अवधिभूतः अश्वः अतः अश्वः यद्यपि न ध्रुवः इवन् दो इट् इस् नाट् स्टेशनरी इट् इस् स्टिल् कन्सिडर्ड् एस् द लिमिट् फ्रम् विच् द सेपरेशन् इस् बीङ्ग् टोल्ड् एण्ड् देर् फोर् इट् इस् स्टिल् एन् अपादानम् तथैव वार्तिकमासीत् जुगुप्सा विरामप्रमादार्थानाम् उपसङ्ख्यानम् एतेषां प्रयोगे विषयः जुगुप्साविषयः द थिङ्ग् टुवर्ड्स् विच् देर् इस् डिस्कस्ड् आर् स्टाप् फ्रम् डूयिङ्ग् संथिङ्ग् आर् प्रमाद टु डिविएट् फ्रम् संथिङ्ग् सो एषां प्रयोगे एतद्विषयीभूतः अपादानं भवति पापात् जुगुप्सते पापात् विरमति धर्मात् प्रमाद्यति इत्यादि भीत्रार्थानां भयहेतुः इत्यग्रिमं सूत्रं भयार्थकानां त्राणार्थकानाम् अर्थात् रक्षणार्थकानां च प्रयोगे भयस्य मूलं यत्र भयं विद्यते भयमस्ति भयात् रक्षणं प्राप्यते अतः तत्र भयस्य हेतुः भयस्य कारणम् अपादानसंज्ञं भवति व्याघ्रात् बिभेति त्रस्यति इत्यादि एवं चोरेभ्यः त्रायते वन्यमृगेभ्यः त्रायते इत्यादि पराजय रसोढः पराजयतेः प्रयोगे परा इत्युपसर्गपूर्वकस्य जि धातोः प्रयोगे असोढः सोढुम् अशक्यः अर्थः दट् विच् केन् नाट् बि टालरेटेड् इस् काल्ड् अपादान अथवा अध्ययनात् पराजयते ग्लायते इत्यर्थः He is facing difficulties in his study and therefore he cannot continue. Okay. So, parajayate is used in two senses. One is to conquer or defeat somebody and the other is to be defeated oneself. That is, oneself cannot tolerate. So, shatrun parajayate ityatra padanatvam nasti, adhyanat parajayate ityatra asti. So, depending on the context. Varanarthanam ipsitaham. वारयति इति इत्यस्य प्रयोगे इत्यर्थकानां प्रयोगे सो टु प्रिवेण्ट् फ्रम् डूयिङ्ग् संथिङ्ग् सो तत्र ईप्सितः that which is desired to be prevented, that is, from association with something else, is will be called apanana. Okay. Yavebhyaha gam marayati. Yavebhyaha yavaha ipsitaha ataha tatra apanana samya gauhutu ipsitama ataha tatra karma samya. Antardhau yena darshanam icchati. Antardhau sati yena adarshanam icchati yat kartrakam atmanah darshanam na icchati. So if a person does not want somebody else to see him and hides from somebody so that person will not be seen by that person. So that yena adarshanam icchati. So the person from whom he wishes to hide will get apadana samya. Say matur nilingyate krishnaha. Krishna hides from his mother so that she cannot see him. Satra matuhu apadana samya bhavati. Akhyata upayoge. Upayogaha nama niyama purvaka vidyasvikaraha. Satra akhyata nama vakta. Upadhyayaha gururva. Tasya apadana samya bhavati. Upadhyayad adhite. Janikartuhu prakratihi. Jananam. Tasya karta tatra upadana karanam svikriyate prakriti nam upadana karanasya upadana sapnya bhavati brahmanah prajaha prajayante. So all beings are born from brahman. Okay? Brahma sarvesham upadana karanam atah tasmat panchami vibhakti. Bhuvah prabhavah. Prabhavaha nama prathama prakashaha, where it is seen first, even though it might exist before, when it is revealed first. So tatra prabhavaha prakashasthanam, prathama prakashasthanam, tasya panchami vibhaktir bhavati. Himavataha ganga prabhavati, tatra prathamam prakashate, tyarthe, himavat chabdat panchami vibhakti. Etani sanvani apadana samya vidhayakani sutrani. Apadane panchami ityanena panchami vibhakti vidhiyate. Kachit etayoho etesham abhavepi. So even when there is no apadana samya, buddhikrata apadanam iti bhashikrata uchyate. Mathuraha patali kutra kebhyaha adhyataraha. So the people of Mathura are more prosperous than those of Pataliputra. So when you are doing this comparison, there is no actual apadana. I mean, none of these sutras will apply. But still he says, there is a buddhikata apadana. So in your mind, you separate the group of, say, Mathuras from Pataliputraka, and you say one is richer than the other. So buddhikatam apadanatam adaya tatra apadana samya panchami vibhaktishcha bhavati. Tenaiva sarvatra bhavati. So in all sutras other than Thavapaya apadana, the Bhashyakara says that you can use that buddhikrita apadana. Say when you are using janikartuh prakatihi, brahmanaha prajaha prajayante. So there is Brahman and you are bringing out all the prajas from him. Okay, so there is a vishlesha and Brahman is the avadhi. Okay. So you can apply the same logic to all the sutras and therefore dronapaye apadanam is actually the only apadana sutra which is required is what the Bhashyakara means. Esha apadana panchami, the kvachita karmanaha adhikaranasya panchami vibhaktir vidhiyate. Leblope karmani adhikaranasya levantasya aprayoge sati tat prakritika dhatoho levanta prakritika dhatoho tat kriyayaha karmanaha adhikaranasya panchami vibhaktir bhavati. Utha prasadat prekshate. Prasadam aruhya prekshate. So he climbs up on the terrace and sees. Satra prasadam aruhya. Aruhya iti lyabantaha aprayuktaha. Tatra karma bhavati prasadaha. Tasmat panchami vibhaktir bhavati. Prasadat prekshate. Evam asanat prekshate. Asane upavishya prekshate. So he views seated in his chair. So asanat, asane upavishya iti adhikaranasya. Upavishya iti lyabantaha prayuktaha. तस्य अधिकरणस्य आसन इत्यस्य पञ्चमी विभक्तिः आसनात् प्रेक्ष्यते. ततः उपपदपञ्चमी विद्यते. यतश्च अर्धकालनिमानं ततः पञ्चमी. यस्मादवधेः अध्वनः अर्थात् मार्गपरिमाणस्य कालपरिमाणस्य वा निमानं क्रियते ततः पञ्चमी. अथवा ग्रामात् वनं योजनं योजनदूरे अस्ति अथवा कार्तिक्याः अग्रहायणी मासे कार्तिक्याः आरभ्य एकमास अवधौ अवध्यनन्तरम् अग्रहायणी वर्तते इत्यादि. तद्युक्तात् अध्वनः प्रथमा सप्तम्यौ ग्रामात् वनं योजने अथवा योजनम् इति कालात् सप्तमी कार्तिक्याः अग्रहायणी मासे कालवाचकस्य सप्तमी अध्ववाचकस्य प्रथमा अथवा सप्तमी. तद् अवधेः तेषां परिमाणस्य अवधेः पञ्चमी विभक्तिः. अन्यारात् इतरर्थे दिक्शब्दांशूत्तरपदाजाहि युक्ते एतैः शब्दैः योगे पञ्चमी विभक्तिर्भवति. अन्यार्थकाः शब्दाः आरात् इति अव्ययम् ऋते इत्यपि अव्ययम् दिक्शब्दाः दिग्वाचकाः शब्दाः अञ्चूत्तरपद प्राक् प्रत्यक् इत्यादयः यत्र अञ्चु इति धातोः उत्तरपदे अस्ति आच् आहि इति तद्धितप्रत्ययौ स्वतदन्ताः शब्दाः. सो वेन् असोसियेटेड् वित् आल् दीस् वर्ड्स् वि हाव् पञ्चमी विभक्ति. अपपरिवर्जने आङ्मर्यादावचने पञ्चम्यपाङ्परिभिः अप आङ्परि कर्मप्रवचनीयसंज्ञा यत्र अस्ति एतेषां तद्योगे पञ्चमी विभक्तिर्भवति. हरेः अप हरेः परि वर्जनार्थकयोः अपपरि इत्येतयोः मर्यादा अभिविध्यर्थकस्य आङ् इत्यस्य च कर्मप्रवचनीयसंज्ञा भवति. एवं प्रतिप्रतिनिधिप्रतिदानयोः इत्यनेन प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा तस्माच्च पञ्चमी विभक्तिः. प्रतिनिधिप्रतिदाने च यस्मात् यः प्रतिः प्रतिनिधिप्रतिदाने वर्तते तद्योगे पञ्चमी विभक्तिः. कृष्णात् प्रति प्रद्युम्नः अथवा तिलेभ्यः माषान् प्रति यच्छति. प्रतिनिधिः नाम सदृशः प्रतिदानं नाम प्रत्यर्पणं स्वीकृतस्य प्रत्यर्पणम्. अकर्तरि ऋणे पञ्चमी सः अधीतम् हेतौ हेतुभूते ऋणे ऋणे पञ्चमी विभक्तिः. सो वेन् ऋण इस् द कास् फार् सम्थिङ्ग् देर् इस् पञ्चमी विभक्ति. शतात् बद्धः शतं शतसुवर्णात्मकं ऋणं स्वीकृतं न प्रत्यर्पितम् अतः बद्धः. सो बन्धनस्य कारणं भवति हेतुर्भवति ऋणं. सो ऋणे ऋणवाचकात् पञ्चमी विभक्तिर्भवति. यत्र ऋणवाचकः न कर्ता अर्थात् हेतु इत्यस्य कारणम् इत्यर्थे एव इदम् यत्र तत्प्रयोजको हेतुश्च इत्यनेन हेतुसंज्ञा भवति. प्रयोजककर्तृत्वं तत्र पञ्चमी न भवति. शतेन बन्धितः इत्युक्ते शतं प्रयोजककर्ता उत्तमरणः प्रयोज्यकर्ता. शतेन उत्तमरणेन अधमरणो बन्धितः इत्यर्थे पञ्चमी न भवति किन्तु तृतीयैव. विभाषा गुणे स्त्रियां स्त्रियां गुणे विभाषा हेतौ इति अनुवर्तते. हेतुभूतं गुणवाचकं गुणवाचकशब्दः यदि हेतुभूतः अस्त्रीलिङ्गश्च तर्हि विकल्पेन पञ्चमी विभक्तिः. पञ्चमी अपि भवति तृतीया अपि भवति. प्रायेण हेतुवाचकस्य तृतीयैव अत्र विकल्पेन पञ्चमी विधीयते. जाड्येन जाड्याद्वा बद्धः वस्तुतः गुणे अस्त्रियामेव पञ्चमी विकल्पः. किन्तु क्वचित् अगुणवाचकस्य गुणवाचकभिन्नस्य तथैव अस्त्रीलिङ्गस्यापि भवति. क्वचित् शिष्टप्रयोगे सति योगविभागात् साध्यते. वि यूस् योगविभागात् टु सपोर्ट् सच् प्रयोगास्. पर्वतो वह्निमान् धूमात् धूमः न गुणः तथापि पञ्चमी दृश्यते. नास्तिघटो अनुपलब्धेः अनुपलब्धिः इति गुणः किन्तु स्त्रीलिङ्गे विद्यते तथापि पञ्चमी भवति किन्तु यत्र शिष्टप्रयोगः तत्रैव. पृथग् विना नानाभिस्तृतीयान्यतरस्याम् पृथग् विना नाना इति त्रयाणाम् अव्ययानां प्रयोगे तृतीया विकल्पेन भवति पक्षे द्वितीया पञ्चमी इति तिस्रः विभक्तयः भवितुम् अर्हन्ति रामेण विना रामं विना रामाद्विना इति एवं नाना पृथक् करणे च स्तोकाल्पकृच्छ कतिपयस्य असत्त्ववचनस्य स्तोक अल्पकृच्छ कतिपय इत्येतयोः इत्येतेषाम् असत्त्ववचनानाम् अर्थात् अद्रव्यवाचिनां प्रयोगे सो वेन् दे रेफर् टु एन् अब्स्ट्राक्ट् मेटर् नाट् टु आक्चुवल् मेटीरियल् थीम् तदा करणे करणवाचकं यदा करणभूतं तत्र पञ्चमी विभक्तिः विकल्पेन भवति सो देर् इस् आप्शनल् पञ्चमी अण्ड् तृतीया स्तोकेन मुक्तः स्तोकान्मुक्तः दूरान्तिकार्थेभ्यो द्वितीया च दूरार्थकेभ्यः अन्तिकार्थेभ्यः अन्तिकं नाम समीपं सो वर्ड्स् विच् मीन् दूरा सारवे आर् समी अन्तिक तत् समीप सो द्वितीया भवति द्वितीया च पूर्वतना तृतीया तथा पञ्चमी ग्रामस्य दूरात् ग्रामस्य दूरं ग्रामस्य दूरे एवं समीपं समीपात् समीपे इति प्रातिपदिकार्थे तिस्रः विभक्तयः भवन्ति सो दिस् इस् अबौट् पञ्चमी विभक्ति सो देर् इस् स्माल् एक्सर्सैज़् रिगार्डिङ्ग् पञ्चमी विभक्ति सो देर् इस् देर् आर् सेण्टेन्सेस् गिवन् So in which there is a word in bracket, say for example, the first one is just instruction. So, Vakyam Avarne Rattasya Padasya Sukta Vibhaktyantena Rupena Purayitva Salakshanam Pramani Kuruta. So, just give an example, there is Tat in brackets. So, you have to use the right form of Tat. Tat is the Pratipadika. Tad, it should have been actually be Tad. So, Tad is the Pratipadika. You have to use the right form to complete the sentence. Dash Vina Trinamapi Nachalati. So, it is a famous saying where they say tena vina trinamapi na chalati, but other vibhaktis are also possible, right? So even though that sentence uses tritiya, you can use tam vina, you can also use tasmad vina, okay? So you can also use words of other linga of tad if you want. So you have to use all possible vibhaktyantas with, obviously, with the sutra, which is the sutra which gives such vibhakti. So to make my vivaksha clear, I have given the English translation of the sentence. Okay, so that is the meaning which I want to convey. So what should be the vibhakti? What should be the correct form to be used? Okay, so there are about 10 or 15 sentences. So you can do it over the next week or probably next 2 weeks. There is no class next week because I'll be traveling next week. So in the class after that, so that is in October, the first week of October, we'll discuss these and then we will proceed. Okay, so this will be uploaded and you can take these sentences from there. Shashti Vibhakti Prakaranam Saha Arabdham. षष्ठीशेषे इति षष्ठीविभक्तिविधायकं प्रथमं सूत्रम् उक्तागण्यः शेषः विभक्तिप्रकरणे एतावता यदुक्तम् अर्थात् कारकाणि उक्तानि कर्म करण सम्प्रदान अपादान अधिकरण कर्तृकारकाणि उक्तानि तथैव प्रातिपदिकार्थः उक्तः प्रातिपदिकार्थे प्रथमा विभक्तिः विहिता सो एतदर्थव्यतिरिक्तः शेषः कः सः इत्युक्ते सम्बन्धः सो द थिङ्ग् विच् हेस् नाट् बीन् डिफैन्ड् सो फार् इस् द सम्बन्ध सो सम्बन्ध केन् बि आफ् मेनी कैण्ड्स् मेनी स्पेसिफिक् कैण्ड्स् लैक् द स्वस्वामि भाव विच् इस् द सेन्स् आफ् बिलाङ्गिङ्ग् वेर् समथिङ्ग् बिलाङ्ग्स् टु सम्बडी स्व अण्ड् स्वामि सो देट् इस् वन् कैण्ड् आफ् अ रिलेशन् देर् आर् मेनी अदर् कैण्ड्स् आफ् रिलेशन्स् सो आल् दीस् रिलेशन्स् केन् बि डिनोटेड् बै षष्ठी विभक्ति षष्ठी विभक्तिः सम्बन्धे भवति एवं व्याख्यानं ह्यः पठितं राज्ञः पुरुषः इत्यस्ति राजा स्वामी तस्य सः पुरुषः स्वस्वामिभावसम्बन्धे इत्युक्ते राज्ञः पुरुषः इति भवति कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव यत्र कर्मादीनि कारकाणि भवन्ति तेषां सम्बन्धमात्र विवक्षायां षष्ठी विभक्तिर्भवति तदेव शेषष्ठी इति उच्यते सर्वत्र शेषे षष्ठी भवति कर्मणि द्वितीया शेषे षष्ठी इत्यादि सुकिनिदर्से सतां गतम् आर् सद्भिर्गतम् सद्भिर्गतम् इत्यत्र कर्तृत्वमस्ति सतां गतम् इत्यत्र सम्बन्धं सत्सम्बन्धि गमनम् इत्युच्यते So we saw these examples. Sarpisho janite matusmarate. Edhodaka syopaskurute. Edhodaka is water when it is heated with on a fire made of specific kinds of edhaha, fuel. That is the Malavana Ramakara. If you look at the Vyakhyana, the end, the last line of the pratika, Edhodaka syopaskurute. He says, Nimba Karanjadi Kashta Vishesha Prajwalita Agni Taptodakasya Guna Visheshaha Vaidya Shastra Prasiddhaha. Nimba Karanja, etc. So Nimba is neem. So Karanja is other kinds of such medicinal trees. So the fuel from that, this. Nimba Karanjadi Kashta Vishesha Prajwalita Agni Taptodakasya. So what you are not actually adding it to water, but you are heating water on a fire which is made of these fuel, where the fuel uses twigs from these trees, so that itself has a special quality. Guna visheshaha vaidya shastra prasiddhaha. So in Ayurveda you find it. So that is called edhodaka. So okay, edhas and udaka. So edha and udaka, you have fuel and water. So to the water you can add some, he says, the gandha and shoshana gandha dravyadhanadina. So you boil it so that it reduces in this, and it also you add some gandha dravya and all that to make a kashaya. So that is edhodakasya upaskurute. Upaskurute is to treat water in that way, and you have edhodaka. So the word edhodaka, I mean the sentence itself can be split in two ways. One is edhaha, edha udaka, edha iti akarantam iti bhavati, tarhi edha udaka iti. Samasaha, there is a samasa, edhascha, udakanicha, or udakamcha, so it becomes edhodaka. Edhodakam parishkaroti, so he treats that fuel and water, that samahara of fuel and water is one meaning. And the other case where edhas is a sakaranta shabda, okay, like manas. So in that case, edhaha, dakasya upaskurute, daka is the same as udaka. Udakam, dakam ityubhayam, vari pariyayaha, jala pariyayaha. Okay, so both of them mean water. Edhaha means fuel, treats water. Edhaha udakam upaskurute ityarthe bhavati. Edhaha is a separate word. Dakasya is dakam jalam ityarthe. Upaskurute is one possible interpretation. Or edhodakam parishkaroti. Edhodakasya upaskurute. Okay, so that is what the Vyakhyakara says. एधशब्दः अकारान्तः पुल्लिङ्गः कारके इति सूत्रे एधाः पक्ष्यन्ते इति भाष्यप्रयोगात् एधाः इत्यस्ति एधः एधौ एधाः रामाः इति वद् एधाः एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी सो एधोदकस्य इति समस्तपदात् षष्ठी विभक्तिः जातिरप्राणिनाम् इत्येकवद्भावः समाहारद्वन्द्वः तत्र एकवद्भावः एधोदकम् इत्यस्ति कर्मत्वविवक्षायाम् एधोदकं शोषण गंधद्रव्याधानादिना परिष्कुरुते इत्यर्थः सो यू कैन ईदर से एधोदकं उपस्कुरुते और एधोदकस्य उपस्कुरुते कर्मणः विवक्षायां षष्ठी विभक्तिः कर्मत्वस्य शेषत्व विवक्षायां तु एधोदक संबंधि परिष्करणम् इति बोधः Edha-shabdaha sakaranto-pyasti. So there is also a sakaranta form of edha, which is edhas, napumsakalingaha, kastham, darvindhanam, tvedha, idhvam edhaha, samit striyam, iti koshat. So there is idhvam edhaha, there is napumsakalinga and sakaranta. Edha idham se samit dhognihi, ityadi darshanaccha. Bhagavad Gita ayam drishyate. Edha idham. एथेधांसि समिद्धोग्निः भस्मसात् कुरुते अर्जुन एधांसि एधः एधसि एधांसि ससकारान्तस्य नपुंसकलिङ्गे बहुवचने रूपं तथा सति सो इफ यू आर टेकिंग इट एज अ सकारान्त एधः दकस्य इति छेदः एधः दकस्य उपस्कुरुते उदक शब्द समावेशे एध उदकस्य इत्यापत्तेः सो इफ इट वेर उदक एंड एधस् सकारस्य ऋत्वं भवति यत्वं भोभगो भोपूर्वस्य योषि इत्यनेन यत्वं लोपः तदा एध उदकस्य पुनः सन्धिर्न भवति किमर्थं सन्धिर्न भवति इफ यू हैव एधस् प्लस उदक ससजुषोरुः एध ऋ उदक भोभगो अघोपूर्वस्य योषि एध य उदक लोपः यकारस्य लोपः एध उदक इत्यस्ति किमर्थं सन्धिर्न भवति वेरी बेसिक क्वेश्चन प्रोबब्ली नॉट फॉर स्टूडेंट्स हू हैव बीन स्टडीइंग कौमुदी फॉर सो लॉन्ग बट यस लोपशाकल्यस्य इत्यनेन लोपः लोपे कृते एध उदकस्य तिष्ठते आद्गुणः इति पूर्वत्र सिद्धम् असिद्धमस्ति लोपः लोपशाकल्यस्य इति अष्टमाध्यायस्य द्वितीयपादे अस्ति पूर्वत्र सिद्धम् इत्यनेन असिद्धत्वात् सन्धिर्न भवति अत एव उदकशब्दसमावेशे एध उदकस्य इत्यापत्तेः उदकशब्दपर्यायः दकशब्दोऽप्यस्ति उदक व्यूस् दक भुवनमृतं जीवनं स्यात् दकं च इति हलायुधकोशात् तथा च एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः सो एध इन् दट् केस् एधः दकस्य उपस्कुरुते इत्युक्ते एधस् इस् द कर्ता सो इट् ड्रिङ्क्स् वाटर् एधः उदकम् उपस्कुरुते इत्यर्थः कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी निम्बकरञ्जादि काष्ठविशेष प्रज्वालिताग्निरक्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः भजे शम्भोश्चरणयोः शम्भोः चरणौ भजे इत्यर्थः तत्र कर्मत्वस्य विवक्षायाम् अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी शम्भुचरणसम्बन्धि भजनम् इत्यर्थः फलानां तृप्तः करणत्वस्य शेषत्वविवक्षायां षष्ठी सो हि सेटिस्फैड् बै फ्रूट्स् फलानि करणं तृप्तेः करणं तत्र करणत्वस्य सम्बन्धमात्रविवक्षायां षष्ठी विभक्तिर्भवति फलसम्बन्धिनी तृप्तिः इति बोधः सो आल् दीस् आर् एक्साम्पल्स् वेर् शेषे षष्ठी इस् यूस्ड् सो भिन्नकारकाणां शेषत्वविवक्षायां षष्ठी भवति सो दट् इस् द प्रधानसूत्र फार् मेनी अदर् सूत्र षष्ठी हेतुप्रयोगे इति सूत्रं षष्ठी हेतुप्रयोगे इति छेदः हेतौ इति अनुवर्तते हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् सो जनरली फार् हेतु वि हेव् हेतुवाचक वि हेव् तृतीया हेतुवाचकस्य तृतीया भवति अन्नेन वसति यदि गुणवाचकः अस्त्रीलिङ्गश्च सो इफ् इट् इस् गुणवाचक एण्ड् नाट् अस्त्रीलिङ्ग तदा विकल्पेन पञ्चमी विभक्तिः भवति इदानीं केन् हाव् तृतीय आर् पञ्चमी से जाड्येन जाड्यात् बद्धः सो हेतुशब्दप्रयोगे द वर्ड् हेतु इट्सेल्फ् इस् यूस्ड् इन् द सेण्टेन्स् देन् वी हेव् षष्ठी ओके अन्नेन वसति अन्नेन हेतुना वसति इफ् यु यूस् द वर्ड् हेतु इट्सेल्फ् देन् इट् बिकम्स् अन्नस्य हेतोर्वसति अन्नस्य हेतोः फार् द रीसन् आफ् अन्न दट् इस् फुड् हि स्टेस् अन्नस्य हेतोः वसति हेतु शब्दस्यैव यदि प्रयोगः भवति तदा अन्नस्य हेतोर्वसति इति प्रयोगः हेतौ द्योत्ये हेतुत्वे द्योत्ये हेतुवाचका षष्ठी इति फलितम् हेतौ इति तृतीयां बाधित्वा षष्ठी हेतुप्रयोगे किम् अन्नेन वसति द वर्ड् हेतु इस् नाट् यूस्ड् वि हेव् तृतीया हेतौ द्योत्ये इति किम् अन्नस्य हेतोस्तुभ्यं नमः अत्र युष्मच्छब्दान् न भवति हि सेस् अन्नस्य हेतोः तुभ्यं नमः सो सल्युटेशन्स् टु यू हू इस् द काज़् आफ़् फुड् दट् इस् हू प्रोवैड्स् फुड् अत्र तुभ्यम ईश्वर शब्दात हेतुत्वम न द्योत्यते. सो बाय द वर्ड अन्न एंड बाय द वर्ड हेतु इटसेल्फ देयर इट इज इंडिकेटिंग कॉज. सो द हेतु ऑफ अन्न एंड ईश्वर पदार्थ आर द सेम. इट इज यू हु इज द कॉज ऑफ फूड, दैट इज हु प्रोवाइड्स फूड. किंतु पदार्थे समानेपि युष्मत् शब्दात् हेतुत्वं न द्योत्यते. सो द वर्ड युष्मत् इज नॉट इंडिकेटिंग हेतु. द वर्ड अन्न एंड हेतु आर इंडिकेटिंग दट इट इज द कॉज, वेरस युष्मत् इज नॉट यूज इन द सेंस ऑफ कॉज. तुभ्यं नमः अत्र युष्मत् शब्दात् न भवति, हेतुवाचकस्यैव षष्ठी विभक्तिर् भवति, अन्नस्य हेतोर्वसति. अग्रिमं सूत्रमस्ति सर्वनाम्नः तृतीया च. सर्वनाम्नः तृतीया च इति छेदः पूर्वतनसूत्रात् हेतुप्रयोगे इत्यस्ति. हेतौ इत्येन वर्तते, षष्ठी हेतुप्रयोगे इत्यपि वर्तते. सर्वनाम्नः हेतुशब्दस्य च प्रयोगे, सो यु आर् यूसिङ्ग् बोत् द वर्ड् हेतु एण्ड् अ सर्वनाम. हेतौ द्योत्ये तृतीया स्यात् षष्ठी च, सो वि केन् हाव् ईदर् तृतीया और् षष्ठी. केन हेतुना वसति और् कस्य हेतोर्वसति, सो फार् वाट् रीज़न् डस् हि स्टे. तत्र किम् इति सर्वनाम्नः प्रयोगः अस्ति, तथैव हेतुशब्दस्यापि प्रयोगः अस्ति. तत्र तृतीया अपि भवितुमर्हति, षष्ठी अपि. केन हेतुना वसति, कस्य हेतोः वसति. सो दिस् इस् एक्चुलि दि सूत्र निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् इति वार्तिकम्. So this vartika says, nimitta paryaya prayoge, when you are using words, synonyms of nimitta, nimittam, hetuhu, karanam, all of these are the same in the cause. Sarvasam prayadarshanam, you see almost all vibhaktis, is what he says. Say, nimitta paryayanam prayoge, tebhyaha tat samanadhikaranebhyascha. So for that particular word, say nimittam, karanam or hetu, and samanadhikarana. That is the word which actually indicates the hetu. Annasya hetoho. Anna and hetu are samanadhikarana. So for the word hetu and for the samanadhikarana, sarvasam vibhaktinam prayena prayogo bhavati. So nimittam karanam hetuhu. Kim nimittam vasati, kena nimittena, kasmai nimittaya, kasman nimittat, kasya nimittasya, kasvin nimitte. All vibhaktis can be used. Okay, so even though Paninita Sutrakara says he is only Tritiya and Shashti, all Vibhaktis, Kim Nimittam has both the Prathama and Dritiya, so for the others. Similarly with the Karana, Kim Karanam Vasati, Kena Karanena Vasati, Kasmai Karanaya, Ityadi. Okay. Evam, Kim Karanam, Kohetuhu, Kim Prayojanam, Ityadi. So basically, all vibhaktis can be used in such prayoga, where you use a sarvanama and you use one of these words, words which mean the cause, nimitta, karana, hetu, etc. You can use any vibhakti. Prayagrahanat, asarvanamnaha, prathama dvitiye nastaha. So if it is a sarvanama, the prayoga of all vibhaktis are seen. So he says prayadarshanam, so if it is not a sarvanama, so when you are specifying a certain thing, okay, so for example, annasya hetoho, anna is the hetu, prathama dvitiye nastaha, prathama vibhakti advitiya is not seen. For example, you cannot say annam nimittam vasati, but annena nimittena vasati, annaya nimittaya vasati, annat nimittat, annasya nimittasya, anne nimitte. So similarly, jnanena nimittena harisvevyaha, jnanaya nimittaya, jnanan nimittat. So if it is not a sarvanama, we can have any vibhakti from Tritiya to Saptami. If it is a sarvanama, you can have even Prathama and Dvitiya. So sarvasam vibhaktinam prayadarshanam. Evancha shashti hetu prayoge sarvanama tritiya cha iti sutra dvayam na kartavyam bhavati. So if we accept this vartika, both the sutras will not be useful. I mean, because any vibhakti can be used, so the sutras are actually not required. So the vartika kara says that you can use any vibhakti, not just shashti or tritiya. Anyaha api vibhaktayaha upayoktum shakyaha. Agrivam sutra vasti ಷಷ್ಠ್ಯತಸರ್ಥ ಪ್ರತ್ಯಯೇನ. ಷಷ್ಠಿ ಅತಸರ್ಥ ಪ್ರತ್ಯಯೇನ ಏತದ್ಯೋಗೇ ಷಷ್ಠೀ ಸ್ಯಾತ್. ಅತಸರ್ಥ ಪ್ರತ್ಯಯೇನ ಯೋಗೇ, ಸೊ ಪ್ರತ್ಯಯ ವಿಚ್ ಇಸ್ ಇನ್ ದ ಸೆನ್ಸ್ ಆಫ್ ಅತಸರ್ಥ. ಶಿಲುಕೆದ ತದ್ಧಿತ ಪ್ರಕರಣ, ದೀಸ್ ಆರ್ ಆಲ್ ತದ್ಧಿತ ಪ್ರತ್ಯಯ. ದಿಕ್ಷಬ್ದೇಭ್ಯ ಸಪ್ತಮಿ ಪಂಚಮಿ ಪ್ರಥಮಾಭ್ಯ ದಿಗ್ದೇಶ ಕಾಲೇಶು ಅಸ್ತಾತಿ. ಸೊ ದಟ್ ಇಸ್ ವೆರ್ ಅ ಸ್ಮಾಲ್ ಸಬ್ ಪ್ರಕರಣ ಸ್ಟಾರ್ಟ್ ಯು ಹ್ಯಾವ್ ದಿಸ್ ಅಸ್ತಾತಿ ಪ್ರತ್ಯಯ ಇತ್ಯಾರಭ್ಯ ಅಸ್ತಾತಿ ಚ ಇತಿ ಸೂತ್ರ ಪರ್ಯಂತಂ. ಸೊ ಟಿಲ್ ದೇ ಫ್ರಮ್ 5327 ಟು 5340 ದಿಕ್ ದೇಶ ಕಾಲ ವೃತ್ತಿಭ್ಯ ಶಬ್ದೇಭ್ಯ ವರ್ಡ್ಸ್ ವಿಚ್ ಇಂಡಿಕೇಟ್ direction or place or time, say for example purva. Okay, so purva dik, so a place which exists in the direction, and also it can mean a kala, earlier, before, etc. Okay, so for these words purva, para, etc. dik desha kala vrittibhyah shabdebhyah dik shabdebhyah swarthe pratyayah vihitah. Swarthe pratyayah santi tatra atasarthah. ಅತಸ್ ಇತಿ ಪ್ರತ್ಯಯಃ ಅಸ್ತಿ, ದೇರ್ ಇಸ್ ಅತಸುಚ್ ಇಸ್ ಆಕ್ಚುಲಿ ಪ್ರತ್ಯಯ, ಇಟ್ ಇಸ್ ಕಾಲ್ಡ್ ಅತಸ್. ಸೊ ತಸ್ಯ ಅರ್ಥಃ ದಿಗ್ದೇಶ ಕಾಲ ರೂಪಃ, ಸೊ ದಟ್ ಇಸ್ ದ ಸೇಮ್ ಥಿಂಗ್. ಸೊ ಅತಸ್ ಇಸ್ ಇನ್ಕ್ಲೂಡೆಡ್ ಇನ್ ದಿಸ್ ರೇಂಜ್. ಸೊ ದಿಗ್ದೇಶ ಕಾಲ ರೂಪಃ ಸ್ವಾರ್ಥೆ ದಿಗ್ದೇಶ ಕಾಲವೃತ್ತಿಭ್ಯ ಸ್ವಾರ್ಥೆ ಇತ್ಯುಕ್ತೆ ಪ್ರತ್ಯಯಾರ್ಥಃ ಅಪಿ ಸಯೇವ ದಿಗ್ದೇಶ ಕಾಲ ರೂಪಃ ಸಯೇವಾರ್ಥೋ ಯಸ್ಯ ಸಹ ಅತಸರ್ಥ ಪ್ರತ್ಯಯ. ಸೊ ಅತಸರ್ಥ ಪ್ರತ್ಯಯ ಆರ್ ದೋಸ್ ಸಫಿಕ್ಸಸ್ which is added, which are added to dik shabdas in swartha. Dig desha kala vachakebhyah swarthe vihitaha pratyayah atasartha pratyayah. So pratyayas which are given in this prakarana of the ashtadhyayi. So there are so many pratyayas. There is astati, atasuch, ati, enap, aaj, ahi, asi, ri, rishtatil. Okay, so these are the pratyayas. There is 1, 2, 3, 4, 5, 6, 7, 8, 9 pratyayas which are included here. So among these, aach and ahi we saw in dikshabdanju tarapadajahi upte anyaraditarate panchami. So as an exception to shashthyata sattha pratyayana tatra uktam asya vika kim ಷಷ್ಠತಃ ಸಪ್ತಯೇನ ಇತ್ಯಸ್ಯ ಅಪವಾದತ್ವೇನ ತತ್ರ ವಿಧೀಯತೆ ಇತಿ ದಕ್ಷಿಣಾ ದಕ್ಷಿಣಾಹಿ ಇತಿ. ಸೊ ಆಚ್ ಅಂಡ್ ಆಹಿ ಆರ್ ಟೇಕನ್ ಔಟ್ ಆಫ್ ದಿಸ್. ಸೊ ಏನಪ್ ಇತ್ಯಸ್ಯ ಅಪಿ ಏನಪಾ ದ್ವಿತೀಯ ಇತಿ ಅಗ್ರಿಮಂ ಸೂತ್ರಂ ಅಸ್ತಿ. ಸೊ ಅದರ್ ದನ್ ದೀಸ್ ತ್ರೀ, ಸೊ ಫಾರ್ ದ ರೆಸ್ಟ್ ಸಿಕ್ಸ್ ಪ್ರತ್ಯಯಸ್ ಅಸ್ತಾತಿ ಅತಸುಚ್ ಆತಿ ಅಸಿರಿಲ್ ಅಂಡ್ ತಿಷ್ಟಾತಿಲ್. ಸೊ ಏತೇಷಾಂ ಏತತ್ ಪ್ರತ್ಯಯಾಂತಾನಾಂ ಯೋಗೇ ಷಷ್ಠಿ ವಿಭಕ್ತಿರ್ಭವತಿ ಇತ್ಯರ್ಥಃ. ಸೊ ದಿಕ್ಷಬ್ದ ಇತಿ ಪಂಚಮ್ಯಃ ಅಪವಾದಃ ಅಜ್ಞಾನಾದಿತರಸ್ತೆ ದಿಕ್ಷಬ್ದ ಇತ್ಯಸ್ತಿ. ದಿಕ್ಷಬ್ದೆ ಇಹಿ ಯೋಗೇ ಪಂಚಮೀ ವಿಭಕ್ತಿಃ ಗ್ರಾಮಾತ್ ಪೂರ್ವಃ ಇತಿ. ಕಿಂತು ಇಫ್ ಒನ್ ಆಫ್ ದೀಸ್ ಗ್ರಾಮಸ್ಯ ಪೂರ್ವಸ್ತಾತ್ ಯದಿ ಅಸ್ತಾತಿ ಪ್ರತ್ಯಯ ಉಪಯುಜ್ಯತೆ ತದಾ ಷಷ್ಠೀ ವಿಭಕ್ತಿರ್ಭವತಿ. ಸೊ ದಿಸ್ ಇಸ್ ಅನ್ ಎಕ್ಸೆಪ್ಷನ್ ಟು ದಿಕ್ಷಬ್ದ ಪಂಚಮೀ. ಗ್ರಾಮಸ್ಯ ದಕ್ಷಿಣತಃ, so to the south of the village. Atasuch is a pratyaya, the atasartha. So the first pratyaya we take is atasuch. So dikshabdebhyah. So by the same sutra you have astati. I have to check this. I'm not sure if this is the same sutra. Okay. So kaha arthaha dakshinasyam dishi. Dakshinasyah dishah dakshinadik. So saptami panchami prathama. So dakshinataha iti avyayam. Okay, dakshinatah is an avyaya. It means in the southern direction of the village, or dakshinasyaha from the southern direction of the village, or just south of the village. So tisrunam vibhaktinam arthaha anena avyayena jyotyate dakshinatah iti. Gramasya puraha asi pratyayam. So all these come under that adhikara. Okay, dikshabdebhyah ಅಸ್ತಾತಿ ಇತ್ಯಾದಿ. ಸೊ ಪೂರ್ವಾಧನಾವರಾಣಾಂ ಅಸಿ ಪುರಧವಶ್ಚೈಷಾಂ ಇತಿ ಸೂತ್ರೇಣ. ಸೊ ಪೂರ್ವ ಶಬ್ದಾತ್ ಅಸಿ ಪ್ರತ್ಯಯಃ ಪುರ ಇತ್ಯಾದೇಶಃ. ಸೊ ದಟ್ ಬಿಕಮ್ಸ್ ಪುರಃ. ಸೊ ಇಟ್ ಮೀನ್ಸ್ ಪೂರ್ವಸ್ಯಾಂ ದಿಶಿ ಪೂರ್ವಸ್ಯಾಹ ದಿಶಃ ಪೂರ್ವಾದಿಕ್. ಇಟ್ ಮೀನ್ಸ್ ಇನ್ ದ ಈಸ್ಟರ್ನ್ ಡೈರೆಕ್ಷನ್ ಆರ್ ಫ್ರಮ್ ದ ಈಸ್ಟರ್ನ್ ಡೈರೆಕ್ಷನ್ ಆರ್ ಜಸ್ಟ್ ಈಸ್ಟ್ ಆಫ್ ದ ವಿಲೇಜ್. Satya sarvatra, these are dikshabdas. So they should have been, if you use purva, it is gramat purvaha. If you use puraha, it is gramasya puraha. Shashti vibhaktir bhavati. Shashti atasartha pratyena. Similarly, purastat ityasti. This is astati, sorry, this is not atasuch. There is some typing error which I will correct in the notes. So this is astati. So the sutra is that. Dikshabdebhyah ityadi. Pura shabdasya astati cha iti sutrena puradeshaha. So there is pura adesha, it becomes purastat. So it is the same. Puraha and purastat is towards the east of the village. Gramasya upari uparishnat. So this is ril and rishtatil. Upari uparishtat iti sutrena urdhva shabdat ril pratyaha rishtatil. So we know upari itself as an avyaya, but it is actually derived from urdhva, that is above. Okay, you are adding the pratyaya ril and the adesha uparishtat. Okay, so upa as the adesha. So upari uparishtat ityukte urdhvayam dishit. So above, in the direction which is above, or from above, or just above ityarthe. Gramasya upari athava gramasya uparishtat iti prayogaha. So in association with all these words, etat pratyayam pehi yoge shashchata sartha pratyayena ityanena shashchi vibhaktihi bhavati. Ena pa dvitiya, tasti ena iti tatraiva bhavati atasartha pratyaha. So tadyoge ena bantena yoge dvitiya syat. In association with enap, there is dvitiya. Enapa iti yoga vibhagat shashti api. So Rishidhar says that you split the sutra. There is enapa, there is shashtata sartha pratyayena, enapa, and then dvitiya. So it means ena bantena yoge shashti bhavati, dvitiya api bhavati. Yoga vibhaga diti. Enapa iti yoga vibhajyate. Shashthyata sartha iti purva sutra shashthi iti anuvartate. Enabantena yoga shashthi syad ityartha. Dvitiya iti yogantaram. So the next sutra will be dvitiya. Enapa iti anuvartate. So enabantena yoga dvitiya syad iti uktaha arthaha. He says you can use both. Dakshinena gramam gramasyava. So dakshinena is not tritiya of dakshina. It is ena pratyaya on dakshina. Okay. Ena banyatarasyam adure apanchamyaha. So dakshinasyam dishi. Dakshinena means in the southern direction or just south of the village. Apanchamyaha. So in the previous case we saw three vibhaktis. Right. So purvasyam dishi, purvasyaha dishaha, purvadik. So apanchamyaha, there is no panchamyartha here. So there is saptamyartha or prathamartha. Adure. So ena banyatarasyam adure. So towards the south and nearby. Ityarthaha. Dakshinena gramam ityasya. Evam uttarena ityadi. So you can also say uttarena gramat, etc. Now, ena uttarena iti vyakshane. Uttarena gramam gramasyava iti udaharanam. Purvena gramam gramasyava itya jepi bodhyam. Dikshabdebhyaha enabdithehe. So any dikshabda, yachana, purva, dakshina, uttara, etc. Bhashyetu, but in the bhashya, shashthita sartha iti sutrant prag enapa dvitiya ityasya pathaha iti prithagvina iti sutre uktam. In some other sutra, he mentions that this enapa dvitiya should come before shashthyata sattha pratyayena. Ataha atra satyapi yoga vibhage shashthi grahana anuvrittehe asambhavat. So if it comes before, there cannot be anuvritti of shashthi, even if you do yoga vibhaga. Satyapi yoga vibhage shashthi grahana anuvrittehe asambhavat. Enapa yoga shashthi asadhureva iti yuktam. So he says that shashthi is not right. So gramam dakshinena ityeva bhavet, gramasya iti na bhavet. So probably, I mean, that is what Panini also means, because he does not, if he wanted, he would have said dvitiya cha. Shashti api apekshyate. Dvitiya cha iti uktavan. So he just says dvitiya, which means in association with enabanta, there is only dvitiya and not shashti. So the Vyakshakara also says that. Okay. We'll stop here and we'll continue with Shashti Vibhakti in the next class. As I said, there is no class next week. So the next class will be on 7th October. Yeah. Okay. Any questions? ಕೇನಾಕ್ಷರಸಮಾಂನಾಮಹೇಶ್ವರಾತ್ಕತ್ಸಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ನಿಮಿತ್ತಯ ನಮಸ್ಕೃತ್ಯ ತೃಪ್ತಿ ಪರಿಭಾಂಗ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ